एषा रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रस्तुत्री रत्नावली शर्मा। राष्ट्रसभायाः ह्यस्तनोपवेशे गत विक्रमवर्षीयं चलचित्र विधेयक सम्बद्धं विधायन व्यवस्थापन समितेः प्रतिवेदनं प्रस्तुतमस्ति। विधायन व्यवस्थापन समितेः सभापतिः तुलसा कुमारी दाहालः गत विक्रमवर्षीयं चलचित्र विधेयक सम्बद्धं विधायन व्यवस्थापन समितेः प्रतिवेदनं सभा समक्षं प्रास्तौत। एवमेव संघीयता सबलीकरण राष्ट्रिय सम्बद्धता समितेः सभापतिः सोनाम गेल्जेन शेर्पा समितेः गतार्थिक वर्षस्य वार्षिकं प्रतिवेदनं सभा समक्षं प्रास्तौत। एतत्पूर्वं राष्ट्रसभायाः ह्यस्तनोपवेशे सांसदाः फाल्गुन मासस्य एकविंशे दिवसे निर्धारितं निर्वाचनं भयरहितं निष्पक्षं च विधातुं सर्वकारस्य ध्यानाकर्षणं विहितवन्तः। सांसदः निर्वाचनाचार संहिताम् उल्लंघ्य जनाः राजनीतिक दलानि च तर्जमानानि सन्तीति चर्चयन्तः एतादृशं कार्यम् अवरोद्धुं सर्वकारम् अनुरुद्धवन्तः। सांसदः भाद्रमासस्य त्रयोविंश चतुर्विंशयोः दिवसयोः सम्भूते जेएनजीयूनां प्रदर्शने ऐतिहासिकानां सम्पदां संरक्षणं कर्तुं न शक्तं, भौतिक सम्पदः विनाशयतां जनानां, पलायितानां बन्दीजनानां च निग्रहणं कर्तुं न शक्तम् इति च विषये सर्वकारस्य ध्यानम् आकृष्टवन्तः। राष्ट्रसभायाः अपरोपवेशः अद्य सपादैकवादने वसति। निर्वाचनायोगेन आचार संहितायाः उल्लंघनस्य आरोपे पञ्चभ्य प्रत्याशिभ्य स्पष्टीकरणं स्पृष्टं वर्तते। राष्ट्रिय स्वतन्त्र दलस्य नेत्री बालेन्द्र शाह इत्यस्मै, अपर प्रत्याशिने निकोलस भूषालाय, श्रम संस्कृति दलस्य प्रत्याशिने हर्क साम्पाङ इत्यस्मै, प्रत्याशिने जानुका पाठक इत्यस्यै च विभिन्न विषयेष् आचार संहितायाः उल्लंघनस्य आरोपे स्पष्टीकरणं स्पृष्टमस्तीति आयोगेन संसूचितम् वर्तते। एवमेव नेकपा एमाले दलस्य प्रत्याशिने महेश बस्नेत इत्यस्मै चापी छाउरा इति अपशब्द प्रयोगस्य विषये आयोगेन स्पष्टीकरणं स्पृष्टमस्तीति प्रवक्ता सीतापुन असूचयत्। निर्वाचनायोगेन आगामिनः फाल्गुन मासस्य एकविंशे दिवसे सम्पत्स्यमानं प्रतिनिधिसभा सदस्यानां निर्वाचनं स्वच्छं मर्यादितञ्च विधातुं जनपदस्तरे क्रियारताः अनुगमनाधिकृताः विशेषाधिकारेण सहितं चिह्नं प्रयोक्तुं निर्दिष्टाः वर्तन्ते। आयोगस्य अस्यैव माघ मासस्य नवम दिवसस्य निर्णयस्य अनुसारेण सप्तसप्ततेः एव जनपदानां सहायक प्रमुख जनपदाधिकारिभ्यः प्रमुख कोष नियन्त्रकेभ्यश्च निर्वाचनाचार संहितायाः अनुगमनाधिकृतानां दायित्वं प्रदत्तं वर्तते। नेपाली कांग्रेस दलेन घोषणापत्रे सुशासनस्य विकासस्य व्यावहारिक कार्ययोजनायाञ्च विषयः मुख्यत्वेन समावेश्यन्ते इति ज्ञापितमस्ति। सानेपावर्तिनी दल केन्द्रीय कार्यालये ह्य आयोजिते पत्रकार सम्मेलने दलस्य प्रवक्ता देवराज चालिसे देशस्य यथार्थावस्थां विचार्य घोषणापत्रं केवलायाम् आकांक्षायां प्रतिबद्धतायां च सीमितं न भविष्यति, एतस्य क्रियान्वयनाय आवश्यकं स्रोतः उपायाश्च स्पष्टरूपेण प्रदर्शयिष्यन्ते इति अवदत्। प्रवक्ता चालिसे घोषणापत्र निर्माणस्य क्रमे जनपदेभ्य परामर्शनानि संकलितानि सन्ति, स्थानीय स्तरेभ्य क्षेत्रेभ्य जनपदेभ्यश्च प्राप्तानि परामर्शनानि च एकीकृत्य राष्ट्रिय आवश्यकतायां संयोज्यन्ते इति प्रावोचत्। प्रवक्ता चालिसे निर्वाचनस्य प्रचार प्रसारस्य क्रमे निर्वाचनायोगस्य आचार संहितायाः पूर्णरूपेण पालनां विधाय दलेन निर्वाचनस्य प्रचार प्रसार कार्यं मितव्ययी मर्यादितं च विधास्यते इति अवदत्। प्रधानमन्त्री सुशीला कार्की मार्ग पूर्वाधार प्रभृतीनां विकास निर्माण सम्बद्धानां कार्याणाम् अग्रेवर्धनस्य क्रमे धार्मिके विश्वासे सांस्कृतिक्यां सम्पदायां च प्रतिकूलता न आनेया इत्यत्र बलं ददाति। राष्ट्रिय गौरवयुतायाः काष्ठमण्डप तराई मधेश द्रुत मार्गायोजनायाः निरीक्षणस्य क्रमे मार्ग निर्माण कार्यदलेन ललितपुरस्य खोकना स्थाने ह्य आयोजिते कार्यक्रमे प्रधानमन्त्री कार्की स्थानीय स्तराणां विषयाणां गभीरतया समाधानाय निरदिशत्। तदवसरे प्रधान सेनापतिः अशोकराज सिग्देलः, आयोजनायाः प्रमुख उपरथी धर्मेन्द्र झा च आयोजनायाः कार्यप्रगतेः समाहयानां च विषये प्रधानमन्त्रिणः समक्षं विज्ञापयताम्। आसन नैक सप्तति किलोमिटर मित दीर्घ दूरी मार्गस्य अस्याः आयोजनायाः अधुनावधि भौतिक प्रगतिः प्रतिशतम् पञ्चचत्वारिंशता सम्भूता स्थिति आयोजनया ज्ञापितम् वर्तते। अधिकार दुरूपयोग अनुसन्धान आयोगेन भरतपुर महानगरपालिकायाः तात्कालिकस्य वरिष्ठ स्थपतेः भरत कुमार आचार्यस्य विरुद्धे षण्णाम् कोटीनाम् अष्टसप्ततेर् लक्ष्याणाम् एकोनवतेः सहस्राणां च रूप्यकाणां भ्रष्टाचारः विहितः इत्यारोपे याचिका निवेदनं पञ्जीकारितमस्ति। आयोगेन सार्वजनिक पदस्य दुरूपयोगं विधाय अवैधानिकी सम्पद अर्जितेति अभियोगे ह्यः काष्ठमण्डपवर्तिनि विशेष न्यायालये याचिका निवेदनं पञ्जीकारितमस्तीति प्रवक्त्रा सुरेश नेउपानेभिदेन ह्यः प्रकाशितायां विज्ञप्तौ उल्लिखितं वर्तते। आयोगेन सम्पदः अधिग्रहणस्य प्रयोजनाय आचार्यस्य पत्नी लिली सुवेदी अपि प्रतिवादित्वेन प्रस्तुतास्तीति उल्लिखितं वर्तते। वैदेशिक वृत्त्युपार्जनाय आकर्षक वित्तस्य प्रलोभने निपात्य विभिन्न देशेषु प्रेषयिष्यन्ते इत्युक्त्वा सप्तविंशतिर्लक्ष्याणि अष्टाशीति सहस्राणि च रूप्यकाणि वञ्चितानि इत्यारोपे प्रहरिणा जनत्रयं निगृह्य ह्यः सार्वजनीकृतम् वर्तते। निगृहीतेषु जनेषु नुवाकोट जनपदस्य शिवपुरी ग्रामपालिकायाः अष्टात्रिंशत् वर्षीय कृष्णजी थापा, सप्तरी जनपदस्य द्वाविंशति वर्षीय अनिल कुमार शाह, ललितपुर महानगरपालिकायाः षोडश वडा क्षेत्रस्य त्रिंशत् वर्षीय विवेक भुजेलश्च वर्तन्ते इति काष्ठमण्डप उपत्यका अपराधानुसन्धान कार्यालयस्य प्रहरी उपरीक्षक मनोहर प्रसाद भट्ट असूचयत्। स्वास्थ्य जनसंख्या मन्त्री डाक्टर सुधा गौतम स्वास्थ्य सुरक्षण कोषं प्रभावकारी रूपेण संचालयितुं त्रयाणामेव स्तराणां सर्वकारैः निवेशनं विधातव्यम् इत्यत्र बलं दत्तवती वर्तते। ह्यः पर्वत जनपदवर्तिनः प्रदेश चिकित्सालयस्य निरीक्षणस्य क्रमे मन्त्री गौतमः संघीय सर्वकारस्य वित्तमेव स्वास्थ्य सुरक्षण कार्यक्रमस्य संचालनाय पर्याप्तं न भवतीत्यतः प्रदेश सर्वकारैः स्थानीय स्तरैश्च स्वास्थ्य सुरक्षण कार्यक्रमस्य कृते वित्तं विनियोक्तव्यम् इति उक्तवती। राष्ट्रिय मानवाधिकार आयोगेन शान्ति सुरक्षायां प्रभावोत्पादकः घृणाजनका अभिव्यक्तिः अवरुद्धम् अनुरुद्धम् वर्तते। आयोगस्य प्रवक्ता डाक्टर टीकाराम पोखरेलेन ह्यः प्रकाशितायां विज्ञप्तौ घृणाजनका अभिव्यक्त्या समाजे घृणायाः प्रसारणेन सह शान्ति सुरक्षायामपि समाहोयस्य वर्धनं सम्भवतीत्यतः शान्ति सुरक्षां सबलां विधातुम् आयोगेन नेपाल सर्वकारः अनुरुद्धो वर्तते। इति समाचारः।